सर्वेषु प्रयाणकाले मनसा चलेन भक्त्या निरुच्यत मूर्ध्न्याधायात्मन प्राणम् आस्थितो योगधारणा ओमित्येकाक्षरम् ब्रह्म व्याहरन् मामनुस्मरन् यः प्रयाति त्यजन् देहं स याति परमां गतिम् ओमित्येकाक्षरम् ब्रह्म व्याहरन् मामनुस्मरन् यः प्रयाति त्यजन् देहं स याति परमां गतिम् ओमित्येकाक्षरम् ब्रह्म व्याहरन् मामनुस्मरन् यः याति परमां गतिम् ओमित्येकाक्षरम् ब्रह्म व्याहरन् मामनुस्मरन् यः प्रयाति त्यजन् देहं स याति परमां गतिम् Thank you.
चांद्रमसं ज्योति योगी प्राप्य निवर्तते। ब्रह्म विद्यायां
योगशास्त्रे श्रीकृष्णार्जुन संवादे अक्षरब्रह्मयोगो नामाष्टमोऽध्यायः।